इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां नवाधिकैक शतं यावत् उच्च उत्पादक जलवायु जैव सुदृढ़ सस्य प्रकाराणां विमोचनं करिष्यति। आयोजने प्रधानमन्त्री कृषक वैज्ञानिकैः सह अपि संवादं करिष्यति। प्रधानमन्त्री कार्यालयेन विज्ञप्तौ सूचितम् यत् नवाधिकैक शतं सस्य प्रकारकेष् एकषष्टि सस्यानि सन्ति, येष् चतुस्त्रिंशत् कृषियोग्यानि सस्यानि, सप्तविंशति उद्यान सस्यानि च सन्ति। कृषियोग्य सस्येष् कोदो, तैलबीजम्, इक्षु, कपाशम्, तन्तु, अन्येषां सम्भाव्य सस्य बीजानां विमोचनं भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः इक्षु दण्डम् अतिरिच्य लवेटिका, भग्न तण्डुल, अपशिष्ट फल, वेणु इत्यादीनाम् उपयोगं कृत्वा भविष्यकालिक दृष्टिकोणस्य स्वीकरणस्य आवश्यकतां प्रति बलम् अददात्। ह्यः नवदिल्ल्यां नेशनल फेडरेशन ऑफ को ऑपरेटिव सुगर फैक्ट्रीज लिमिटेड इत्यस्मिन् आयोजिते कार्यक्रमे भाषणं कुर्वन् श्रीशाहः अवदत् यत् इथेनॉल इत्यस्य उत्पादनं लाभप्रदं व्यवहार्यं च व्यवसायः अस्ति, तथा च आगामिषु वर्षेषु देशे एतस्य एकसहस्रं कोटि लीटरमितं यावत् आवश्यकता भविष्यति इति। जैविक ईंधनरूपेण पेट्रोल इत्यस्मिन् इथेनॉल मिश्रणस्य सीमानं प्रशासनं वर्धयिष्यति, असौ उक्तवान्। प्रधानमन्त्री नरेन्द्रमोदी केरल प्रान्ते जुलाई मासस्य एकत्रिंशत् दिनांके संजातेन भूस्खलनेन दुष्प्रभावितेष् क्षेत्रेष् एकं क्षेत्रं चुरामालां ह्यः सम्प्राप्तवान्। सः वायनाडस्य भूस्खलनेन प्रभावितानां क्षेत्राणां यात्रायाम् अस्ति। प्रधानमन्त्री विश्रान्त्युद्धार कार्येष् संलग्नैः सैन्यकर्मिभिः सह वार्तां कृतवान्। मोदिना सह राज्यपालः आरिफ मोहम्मद खानः, मुख्यमन्त्री पिनराई विजयनः, केन्द्रीयमन्त्री सुरेश गोपी एते आसन्। राष्ट्रपतिः द्रौपदी मुर्मू तिमोर लेस्ते इत्यस्य सर्वोच्च नागरिक सम्मानेन ग्रैंड कॉलर ऑफ ऑर्डर इत्यनेन सम्मानितवती। राष्ट्रपतिना जोसे रामोस तोर्ता वर्येण डिली स्थाने राष्ट्रपति प्रासादे तस्मै सम्मानमिदं अलंकृतम्। अवसरेस्मिन् राष्ट्रपतिना श्रीमत्या द्रौपदी मुर्मू वर्यया तत्रत्य राष्ट्रपतिना होर्ता प्रधानमन्त्रिणा गुस्माओ वर्येण समं द्विपाक्षिक सहयोग सम्बन्धे सम्भाषणम् अपि विहितम्। विदेशमन्त्रिणा सुब्रह्मण्यम् जयशंकरेण प्रतिपादितं यत् प्रशासनं भारत मालदीव अन्य क्षेत्रीय जनानां लाभाय मालदीव देशेन सार्धं घनिष्ठ सम्बन्धान् प्रति वचनबद्धं वर्तते। डॉ जयशंकरः त्रिदिवसीय यात्रायै मालदीव देशं वर्तते। तेन राष्ट्रपतिनं डॉ मोहम्मद मुइज़ु वर्येण समं सम्भाषणम् अपि विहितम्। तयोः मध्ये रक्षा सुरक्षा सम्बद्ध सहयोग सामुद्रिक सुरक्षायै संयुक्त पदक्षेपानां विषये शान्तिं स्थिरतां च संधारयितुं तेषां हितानां विषये चर्चा जाता। विदेशमन्त्रिणा आर्थिक विकास व्यापार मन्त्री वित्तमन्त्री मालदीव मौद्रिक प्राधिकरणस्य प्रमुखेण समम् अपि चर्चा अपि संजाता। डॉ जयशंकरेण मालदीव देशस्य अष्टाविंशति द्वीपेष् जल स्वच्छता सम्बद्ध परियोजनानाम् अपि आभासीय तन्त्रांशस्य उद्घाटनं कृतम्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् अद्य भविष्यति इति।